कुमारस्य च तत्त्वानि या सृजत्यपि लीलया कादि नभी च देवान् तान् कुमारीं पूजयाम्यहम्।